सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्। प्रथमतया अहम् एकं श्लोकं वदामि। यथा भूमिस्तथा तोयं, यथा बीजं तथाङ्कुरः, यथा देशस्तथा भाषा, यथा राजा तथा प्रजा। इत्युक्ते अत्र अस्मिन् श्लोके यथा तथा इति पदयुगलमस्ति। एतत् पदद्वयं सर्वदा युगलं कृत्वा वाक्येषु दृश्यते। अपि च यथा तथा इति पदयुगलं यस्मिन् कस्मिन्नपि वाक्ये अस्ति चेत् तदा तत्र द्वयोः पदयोः मध्ये वा द्वयोः वाक्ययोः मध्ये वा सम्बन्धं सूचयति तत् पदयुगलम्। आङ्ग्लभाषायां कञ्जङ्क्षन् इति वदामः, यथा तथा इति तत्र कञ्जङ्क्षन् इव कार्यं करोति। परन्तु अत्र अस्मिन् श्लोके यथा तथा इति यस्मिन् कस्मिन्नपि वाक्ये यथा अस्ति चेत् तत्र साधारणतया तथा अपि भवति। किन्तु अस्य श्लोकस्य अर्थः कः इति किञ्चित् चिन्तनं कुर्मः। अत्र किं दत्तमस्ति? अस्मिन् श्लोके चत्वारः पादाः सन्ति। प्रथमपादः अस्ति यथा भूमिः तथा तोयं। तोयम् इत्युक्ते जलं। यथा भूमिः अस्ति तत् तादृशरीत्या एव तत्र स्थितं जलमपि भवति, तादृशं प्रस्थितं जलमपि रुचिकरं भवति इति तदेव जियालजिस्ट्स् अपि वदन्ति। अपि च यथा बीजं तथा अङ्कुरः इत्युक्ते यदि वयम् आम्रबीजं भूमौ स्थापयामः तदा केवलम् आम्र अङ्कुरः एव तस्मात् आगच्छति इति वयं जानीमः। अपि च तृतीयः पादः अस्ति यथा देशः तथा भाषा, अपि च संस्कृतिः। संस्कृतिः अपि तादृशरीत्या एव भवति। वयं तु जानीमः भारतस्य प्रतिष्ठे द्वे, संस्कृतं संस्कृतिस्तथा इति वयं जानीमः। इत्युक्ते अत्र यथा देशः अस्ति तादृशरीत्या एव भाषा अपि भवति। अन्ततो गत्वा अन्यः विषयः अपि कविना उक्तमस्ति अत्र। तत् किम् इत्युक्ते यथा राजा तथा प्रजा इत्युक्ते देशे यस्मिन् कस्मिन्नपि देशे यथा राजा व्यवहरति अथवा पालकाः व्यवहरन्ति तादृशरीत्या एव जनाः अपि तस्य अनुकरणं कुर्वन्ति, तादृशरीत्या एव जनाः व्यवहरन्ति इति अस्य श्लोकस्य अर्थः। ईदृशान् विषयान् अवगन्तुम् अस्माकं कृते संस्कृतभाषायाः अवगमनम् आवश्यकम्। अतः वयं सर्वे मिलित्वा अत्र संस्कृतभाषायाः अवगमनार्थं किञ्चित् प्रयत्नं कुर्मः। सम्यक्। अत्र प्रसन्न नाम्ना अन्यः अस्ति, अत्र सः कः? अत्र एकवारं वदति वा महोदय अथवा भगिनी? प्रसन्ना जनस्वामी,
नमस्कारं।
नमस्ते भगिनी, अद्य प्रथमवारम् आगतवती वा?
आम्।
सम्यक्। अस्तु भगिनि, अधुना गते सप्ताहे वयम् अद्यतन, ह्यस्तन, श्वस्तन, पुरातन, इदानीन्तन इति पञ्च पदानि, नूतनानि पदानि वयं ज्ञातवन्तः। अत्र तेषाम् आधारेण अत्र अभ्यासपुस्तके एकं सम्भाषणं लिखितमस्ति, परन्तु पूर्णतया न दत्तमस्ति। अत्र असम्पूर्णं सम्भाषणं दत्तमस्ति, गृहपाठरूपेण तत्र सम्भाषणं पूरयन्तु, कानिचन वाक्यानि लिखित्वा तत् सम्भाषणं पूरयन्तु इति अहं गृहपाठं प्रेषितवती। कादम्बरी भगिनी, भवती लिखितवती वा वाक्यानि?
अहं गृहपाठं न कृतवती।
अस्तु, लक्ष्मी भगिनी भवती लिखितवती वा कानिचन वाक्यानि?
अद्यतनपत्रिकां पठितवान् वा न? कः विषयः अस्ति? निर्वाचनविषयः अस्ति, बीजेपि पक्षस्य विजयः अभवत्, पूर्वतन काङ्ग्रेस् पक्षस्य सम्पूर्ण ध्वंसः अभवत्, कः प्रधानमन्त्री भवति श्वस्तन पत्रिकायां पठामः, ह्यस्यतन पत्रिकायां बीजेपि जयं न प्राप्नोति इति आसीत्.
उत्तमम्, उत्तमरीत्या प्रयत्नं कृतवती, उत्तमम्. अत्र पदानि, अत्र कानि पदानि कानि? अद्यतन, ह्यस्तन, श्वस्तन. अपि च गते सप्ताहे वयं गीतासोपानं पुस्तकात् पुरातन अपि च इदानीन्तन इति नूतनपदद्वयमपि वयं ज्ञातवन्तः. परन्तु गते सप्ताहे कादम्बरी भगिनी न आगतवती, तदर्थं सा न ज्ञातवती इति भाति. परन्तु पञ्चपदानि वयं ज्ञातवन्तः. परन्तु अत्र यदा कदापि वयं वाक्यानि लेखितुमिच्छामः तदा किं कथं चिन्तनीयम् अत्र इति एकः प्रश्नः आगतः. इत्युक्ते अत्र वाक्यानि कथं लेखनीयानि इति चिन्तनं कुर्मः चेत्, अत्र ह्यस्तन इति पदं योजयित्वा वाक्यरचनां कुर्मः चेत् तस्मिन् वाक्ये क्रियापदं भूतकालार्थे भवेत्. ह्यस्तन योजयित्वा वाक्यरचनां कुर्मः चेत् भूतकालार्थे क्रियापदं सम्भवति. अपि च श्वस्तन इति पदं योजयित्वा लिखामश्चेत् भविष्यत्कालार्थे क्रियापदं सम्भवति. अद्यतन इति पदं योजयित्वा लिखामश्चेत् वर्तमानकालार्थे क्रियापदं सम्भवति तथा. अपि च पूर्वतन इति पदं योजयित्वा लिखामश्चेत् भूतकालार्थे एव तत्रापि क्रियापदं सम्भवति. इदानीन्तन इति पदं योजयित्वा वदामश्चेत् पुनः एकवारम् इदानीन्तन इति पदं योजयित्वा लेखितुमिच्छामश्चेत् वर्तमानकालार्थे वाक्यं सम्भवति. अत्र सा तु एकः तादृशरीत्या चिन्तनं कर्तव्यम्. अत्र गीतासोपानात् उद्धृतानि करपत्राणि पुनः एकवारं प्रेषितवती, परन्तु गते सप्ताहे एव वयं सम्पूर्णरीत्या कृतवन्तः, अतः अधुना न कुर्मः. अधुना अत्र कादम्बरी भगिनी भवती अवगतवती वा अत्र कथं एतानि पदानि योजयित्वा वाक्यरचना करणीया इति, अवगतवती वा?
आं भगिनि.
एकं वाक्यं वदतु अद्यतन योजयित्वा. अद्यतन अद्यतनकार्य अद्यतनपाठः
अद्यतनपाठः
नो चेत् ह्यस्तन एतादृशरीत्या वदतु ह्यस्तन ह्यस्तनपाठं पठितवती वा?
ह्यस्तनपाठं पठितवती वा
इति अहं पृच्छामि, तत्र उत्तरं किं भवति? आम्
आम् अहं ह्यस्तनपाठं पठितवती.
उत्तमं. ह्यस्तनवातावरणं कथमस्ति? किमपि किमपि वदतु. अत्र तत्र उत्तरं सम्यक् वा न वा इति नास्ति, तस्य चिन्ता मास्तु. ह्यस्तनवातावरणं कथमस्ति?
ह्यस्तनवातावरणं सम्यक् अस्ति.
उत्तमं. गतसप्ताहस्य अत्र इतोपि किं वदामः, यदि भवती परीक्षां लिखितवती चेत् ह्यस्तनपरीक्षा कथम् आसीत्?
ह्यस्तनपरीक्षा सम्यक् आसीत्.
ह्यस्तनवार्तापत्रिका कथमासीत्? पठितवती किमपि तत्र केवलम् अभ्यासार्थं
पठितवती.
अपि च इतोपि किं वदामः, ह्यस्तनपाकः कथमासीत्?
ह्यस्तनपाकः सम्यक् आसीत्.
सम्यक् आसीत्, उत्तमम्. अपि च अत्र इतोपि किं वक्तुं शक्नुमः, ह्यस्तन श्वस्तन 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 इतोपि किं वदामः, श्वस्तन कन्दुकक्रीडा कथं भविष्यति?
ह्यस्तनकन्दुकक्रीडा सम्यक् आसीत्.
श्वस्तन श्वस्तन
श्वस्तन सम्यक् आसीत्.
पश्यतु भगिनि, अत्र श्वस्तन इति वदामश्चेत् श्वस्तन इत्युक्ते भवती जानाति एव श्वः, ह्यः ह्यः इत्युक्ते यस्टर्डे, श्वः इत्युक्ते टुमारो. श्वस्तन इति वदामश्चेत् तत्र क्रियापदं भविष्यत्कालार्थे भवति. सम्यक् भविष्यति इति वदामः. अनन्तरं अनन्तरम् अत्र इतोपि अत्र अद्यतन ह्यस्तन श्वस्तन इत्येषां पदानां विषये यस्य कस्यापि प्रश्नाः सन्ति वा? डिड् यु अण्डर्स्टाण्ड् वेल् दीस् वर्ड्स्?
I'm sorry, I just joined today, so I did not, I mean, I could get a faint idea of it, but didn't totally understand them.
Astu. Itopi abhyasam kurmahava, nochi tatra bhavati avagatavati va bhagini?
I did the Samskritam Shiviram over the weekend. I did 1 year of Samskritam classes in 16-17 and then dropped off because of other things. So I took a shivaram just the Saturday and Sunday, and I'm joining. So I don't know if there is a lot of gap to be covered between first year and what we are doing now, or if it's not too much of a jump that I've like missed.
Astu bhagini, atra kakshayaha anantaram aham suchanam preshayami, tatra kadham pathaniyam ityasmin vishaye kanchana सूचनां प्रेषयामि, तत्र करोतु. अधुना अत्र इतोपि किमस्ति इत्युक्ते, गीतासोपानं पुस्तकात् तत्र अभ्यासाः सन्ति, परन्तु तान् अभ्यासान् गते सप्ताहे एव वयं कृतवन्तः. अत्र लक्ष्मीभगिनी, अहं कानिचन वाक्यानि वदामि, अत्र किञ्चित् उत्तरं वदतु. गते सप्ताहे वयं किं पठितवन्तः?
गते सप्ताहे गीतोपासनं सम्भाषणं पठितवन्तः.
अपि च गतसप्ताहे वयं कानि नूतनानि पदानि ज्ञातवन्तः?
गते सप्ताहे अद्यतन ह्यस्तन श्वस्तन पूर्वतन इदानीन्तन शब्दः पठितवन्तः.
शब्दान् पठितवन्तः. किमर्थं चेत् तत्र पठ् धातुः सकर्मकधातुः इति कृत्वा शब्दान् पठितवन्तः. अपि च गते सप्ताहे वयं तृतीयाविभक्तेः विषये अपि पठितवन्तः. अपि च गते मासे वयं संस्कृतकक्षायां किं पठितवन्तः? किमपि तत्र किमपि वदतु.
गते सप्ताहे गते मासः अहं द्वितीयाविभक्ति पठितवन्तः.
गते मासे वयं द्वितीयाविभक्तेः विषये पठितवन्तः. अपि च गते वर्षे भवती संस्कृतं पठितवती वा?
गते वर्षे अहं संस्कृतपाठं न पठितवान् पठितवती.
उत्तमं. गते दिने भवती किं कृतवती?
गते दिने कार्यालयं गतवती.
उत्तमं. तथा एव गते दिने अहं मधुरं खादितवती इति अपि वक्तुं शक्नुमः. अत्र पश्यन्तु सर्वे, अत्र गते दिने गते मासे गते पक्षे गते सप्ताहे गते वर्षे इति पदानि सन्ति. परन्तु अत्र अस्माकम् अभ्यासपुस्तके गतमासे इति दत्तमस्ति. गतमासे गतदिने गतवर्षे गतसप्ताहे इति दत्तमस्ति. परन्तु अत्र तयोर्मध्ये भेदः अस्ति वा? गतदिने अपि च गते दिने इति पदद्वयमस्ति. अत्र अस्माकं कृते अभ्यासपुस्तके किं दत्तमस्ति? गतदिने गतमासे गतवर्षे गतसप्ताहे इति दत्तमस्ति. परन्तु अत्र गतमासे इति वदामश्चेत् समस्तप्रयोगः इति वदामः. समस्तप्रयोगः इत्युक्ते तत्र पदद्वयमस्ति, तस्मिन् तत्र पदद्वयं योजयित्वा एकं समस्तं पदं कुर्मः. इत्युक्ते तत्र समासः अस्ति. गतमासे इति पदं समस्तपदं समासः अस्ति तत्र. परन्तु गते मासे इति वदामश्चेत् व्यस्तप्रयोगः इति वदामः. पृथक् कृत्वा वाक्यानि वदामः. परन्तु यत्र कुत्रापि समस्तपदमस्ति चेत् तत्र विभक्तेः लोपः भवति. अत्र गतमासे गतमासः इति पदं समस्तपदं, गतदिनं गतवर्षं गतसप्ताहः इति वदामश्चेत् समस्तपदं, गते इति वदामश्चेत् व्यस्तप्रयोगः इति वदामः. परन्तु अग्रे गत्वा वयं तस्मिन् विषये इतोपि चिन्तनं कुर्मः. अधुना अत्र अभ्यासपुस्तके अग्रिमे पुटे किं दत्तमस्ति? गत आगामि इति पदानां विषये किञ्चित् चिन्तनं कुर्मः. सर्वे एकवारं पञ्चपञ्चाशत्तमे पुटे गत आगामि इति पदद्वयं दत्तमस्ति, तस्मिन् विषये चिन्तनं कुर्मः. सर्वे अभ्यासपुस्तकं पश्यन्तु प्रथमतया. अत्र कादम्बरी भगिनी भवती अत्र वदतु किं दत्तमस्ति. 21.1 भागे.
अस्तु भगिनि. गत आगामि गत मासे निर्वाचनम् आसीत्.
अत्र पश्यतु, अत्र कोष्टकमस्ति. कोष्टके तत्र त्रि कालम्स् अस्ति, अत्र कालम्स् सन्ति, गत अपि च मध्य मध्यभागे मासे दिने सप्ताहे वर्षे इति चत्वारि पदानि सन्ति. इत्युक्ते अत्र कानिचन वाक्यानि लेखनीयानि एतानि पदानि योजयित्वा. अत्र रक्तवर्णैः लिखितम् एकं वाक्यमस्ति, तद् वाक्यं पठतु प्रथमतया. सेण्टेन्स् इन् द रेड् कलर्.
कोष्टकस्य साहाय्येन वाक्यानि लिखतु.
अत्र अस्मिन् वाक्ये कति पदानि सन्ति?
चत्वारि.
सुन्दरं, चत्वारि पदानि सन्ति. अत्र कोष्टकस्य इत्युक्ते तत्र विभक्तिः का?
षष्टिविभक्ति.
सुन्दरं, साहाय्येन इति अस्ति, तस्य विभक्तिः.
विभक्ति
वाक्यानि
प्रथमाविभक्ति क्रियापद
बहुवचनं. सुन्दरं, परन्तु अत्र द्वितीयविभक्तौ अस्ति, नपुंसकलिङ्गपदम् इति कृत्वा. नपुंसकलिङ्गपदम् अपि च बहुवचनम् अत्र द्वितीयविभक्तौ अस्ति, किमर्थं चेत् लिख् धातुः सकर्मकधातुः, अतः कर्मपदं स्वीकरोति. अस्मिन् वाक्ये वाक्यानि इति पदं कर्मपदं. लिखतु लकारः कः भगिनि? लोट् लकारः. उत्तमम्. अत्र कोष्टकस्य साहाय्येन वाक्यानि लिखतु इति दत्तमस्ति. इत्युक्ते तानि पदानि योजयित्वा अत्र वाक्यानि लेखनीयानि. अत्र उदाहरणत्वेन वाक्यद्वयम् अस्माकं कृते पूर्वमेव लिखितम् अस्ति. पठतु.
गतमासे निर्वाचनम् आसीत्.
निर्वाचनम् इत्युक्ते किम्?
अहं न जानामि.
कोऽपि वदति वा? लक्ष्मी भगिनी वदतु.
एलेक्षन्.
एलेक्षन्. गतमासे किम् आसीत्? गतमासे निर्वाचनम् आसीत्. अपि च कादम्बरी भगिनी वदतु अग्रिमं वाक्यम्.
आगामिवर्षे मम मित्रम् आगमिष्यति.
आगामिवर्षे मम मित्रम् आगमिष्यति. अत्र आसीत् इति पदं तस्य रूपं किं भगिनि वदतु? कादम्बरी भगिनि. आसीत्
भूतकालं.
सुन्दरं, कस्य पदस्य कस्य क्रियापदस्य भूतकालरूपम्? लक्ष्मी भगिनी वदतु.
अस्ति.
सुन्दरम्, अस्ति इति पदस्य भूतकालरूपं. किमर्थम् आसीत् इति दत्तमस्ति तस्मिन् वाक्ये? किमर्थं चेत् तत्र गतमासे निर्वाचनम् आसीत्. गतमासे इत्युक्ते तत् इट् इस् आलरेडि अभवत्. भूतकालार्थे वाक्यं भूतकालार्थे रचितमस्ति, अतः तत्र गतमासे निर्वाचनम् आसीत् इति दत्तमस्ति. परन्तु द्वितीयं वाक्यं पश्यतु. आगामिवर्षे मम मित्रम् आगमिष्यति. आगामिवर्षे इत्युक्ते इदानीं पर्यन्तं तत् न अभवत्. आगामिवर्षे मम मित्रम् आगमिष्यति. आगमिष्यति इति रूपं वयं पूर्वमेव पठितवन्तः, तत्र भविष्यत्कालरूपम्. तत्र कादम्बरी भगिनी लट्लकाररूपं वदतु आगमिष्यति इति पदस्य.
अहं न जानामि.
लक्ष्मी भगिनी वदतु, प्रयत्नं करोतु. लट्लकाररूपं वर्तमानकालरूपम्.
आगच्छति.
सुन्दरम्, आगच्छति. अत्र आगच्छति इति पदस्य भविष्यत्कालरूपं दत्तमस्ति. भविष्यत्कालरूपम् इत्युक्ते लृट् लकारः इति वदामः, भविष्यत्कालरूपमस्ति. आगच्छति इति पदस्य आगमिष्यति. किमर्थं तथा इत्युक्ते आगामिवर्षे मम मित्रम् आगमिष्यति. अत्र अस्माकं विषयः अस्ति गत आगामि इति पदद्वयम्. अत्र तथा एव अत्र इतोपि अन्यानि वाक्यानि लेखनीयानि. कादम्बरी भगिनी तृतीयं वाक्यं भवती करोतु. गतदिने योजयित्वा.
गतदिने मम
मम परीक्षा आसीत्. वदामः वा? नो चेत् गतदिने मम माता पाकं कृतवती.
गतदिने मम माता पाकं कृतवती.
नो चेत् गतदिने अहं क्रीडाङ्गणे क्रीडितवती. नो चेत् गतदिने अहं संस्कृतं सम्यक् पठितवती. भवती वदतु एकं वाक्यं. गतदिने भवती किं कृतवती? गतदिने सायङ्काले.
गतदिने सायङ्काले अहं
सङ्गीतसाधनां कृतवती. अस्तु, तादृशरीत्या इत्युक्ते अत्र किं कथं वक्तव्यम् इत्युक्ते, गतदिने इति वदामश्चेत् तस्मिन् वाक्ये क्रियापदं सर्वदा भूतकालार्थे एव भवितुमर्हति. इत्युक्ते तत्र वयं पूर्वमेव पठितवन्तः तवतुवन्तरूपाणि, तवतु प्रत्ययान्तरूपाणि, पठितवती, गतवती, खादितवती, आगतवती, तादृशरीत्या तवतु प्रत्ययान्तरूपाणि इत्युक्ते भूतकालार्थरूपाणि योजयित्वा वाक्यरचना करणीया. अथवा तिङन्तरूपम् इत्युक्ते क्रियापदं योजयित्वा वदामश्चेत् क्रियापदस्य भूतकालरूपं योजयित्वा एव लेखनीयम्. किमर्थं चेत् तत्र गत इति दत्तमस्ति. गत इत्युक्ते इट्स् आलरेडि ओवर्. भूतकालार्थे एव वाक्यं भवितुमर्हति. अस्तु, अधुना लक्ष्मी भगिनी भवती करोतु. गतसप्ताहे
मम गृहे अतिथिः आसीत्.
भवती एकं वाक्यं रचयतु. गतसप्ताहे भवती किं कृतवती अथवा किम् अभवत् भवत्याः गृहे?
गतसप्ताहे मम गृहे मम भगिन्या आगतवती.
मम भगिनी आगतवती. नो चेत् गतसप्ताहे मम भगिनी मम गृहे आसीत्. वदतु इतोपि स्वस्य वाक्यैः इतोपि अन्यानि वाक्यानि श्रावयतु.
गतसप्ताहे अहं केलिफोर्निया नगरं
गतवती. वयं पूर्वं पठितवन्तः भूतकालार्थे तवतु अन्तरूपाणि अपि च गतवर्षे. अधुना एकं वाक्यं वदतु. गतवर्षे किं कृतवती अथवा किम् अभवत्?
गतवर्षे मम पुत्री ग्रेजुएटेड्.
स्नातक अभवत्.
स्नातक अभवत्. गतवर्षे अहं भारतदेशे गतवती.
सम्यक् वदतु. अत्र गतवर्षे अहं भारतदेशं गतवती, नो चेत् गतवर्षे अहं भारतदेशे आसम्. भवती कुत्र आसीत् इति प्रश्नं पृच्छामि चेत् गतवर्षे अहं भारतदेशे आसम्. उत्तमम्. इत्युक्ते अत्र अष्टवाक्यानि लेखनीयानि. अत्र गत योजयित्वा चत्वारि वाक्यानि, आगामि योजयित्वा चत्वारि वाक्यानि. गत इत्युक्ते भूतकालार्थे, आगामि इति पदं भविष्यत्कालार्थे एव तस्य उपयोगं कुर्मः, तस्य पदस्य उपयोगं. अधुना वदतु भगिनि, आगामि योजयित्वा वाक्यं वदतु.
आगामिवर्षे अहं संस्कृतपाठं पठिष्यामि.
आगामिवर्षे इतोपि भवती किं कर्तुं शक्नोति भवती, शक्ष्यति भवती किं कर्तुं शक्ष्यति आगामिवर्षे इतोपि? आगामिवर्षे अहं भारतदेशं
गमिष्यामि.
सुन्दरम्. आगामिवर्षे अहं संस्कृतं
पठिष्यामि.
सुन्दरम्. आगामिवर्षे अहं मम सखीगृहं गमिष्यामि. तथा इत्युक्ते तत्र आगामिवर्षे, आगामिमासे, आगामिसप्ताहे इति वदामश्चेत् तत्र वाक्ये क्रियापदं भविष्यत्काले एव लेखनीयम्. अग्रिमं वाक्यं वदतु. आगामिमासे,
आगामिमासे मम मित्रम् आगमिष्यति.
उत्तमम्. अनन्तरं एकं वाक्यं वदतु, अन्यत् वाक्यम्.
आगामिमासे अहं
देवमन्दिरं
गमिष्यामि.
उत्तमम्. अथवा आगामिमासे मम पुत्र्याः विवाहः भविष्यति.
भविष्यति.
तथा एव आगामिमासे अहं संस्कृतकक्ष्यां न आगमिष्यामि. किमपि न आगमिष्यामि, नो चेत् आगामि मासे अहं संस्कृतं पठितुं न शक्ष्यामि. किमपि तादृशरीत्या. अनन्तरम् आगामिसप्ताहे वदतु.
आगामिसप्ताहे अहं बोस्टन् नगरं गमिष्यामि.
उत्तमम्. आगामिसप्ताहे. अपि च इतोपि अन्यत् वाक्यम्.
आगामिसप्ताहे अहं अधिकं पठिष्यामि.
अधिकं पठिष्यामि, नो चेत् आगामिसप्ताहे अहं चलनचित्रं
पश्यामि.
तत्र पश्यामि इति पदस्य भविष्यत्कालरूपम् आवश्यकं.
द्रष्टुम् इच्छामि.
द्रष्टुम् इच्छामि, परन्तु द्रक्ष्यामि.
द्रक्ष्यामि.
उत्तमम्. आगामि सप्ताहे अहं चलनचित्रं द्रक्ष्यामि. अपि च उत्तमं भगिनि. अनन्तरम् अत्र आगामि पर्वदिने भवती किं कर्तुमिच्छति भवती आगामि पर्वदिने?
पर्वदिने इस् वाट्?
पर्वदिने इत्युक्ते किं? पर्वदिने इत्युक्ते फेस्टिवल्. आगामि पर्वदिने वदतु.
मन्दिरं गच्छामि.
मन्दिरं
गच्छामि.
भविष्यत्कालार्थे
गमिष्यामि.
सुन्दरम्. उत्तमं. तावदेव. अत्र अधुना उमाशङ्कर् महोदय, भवान् वदतु कानिचन वाक्यानि गत अपि च आगामि योजयित्वा.
आगामिवर्षे अहं प्रतिदिनं पञ्चवादने उत्तिष्ठामि.
पञ्चवादने किञ्चित् उच्चैः वदतु महोदय, सम्यक् न श्रूयते, अतः किञ्चित् उच्चैः वदतु.
अत्र आगामिवर्षे प्रतिदिनं पञ्चवादने उत्तिष्ठामि.
अत्र उत्तिष्ठामि इति पदं वर्तमानकालार्थे अस्ति, परन्तु उत्तिष्ठामि इति पदस्य भविष्यत्कालरूपं किम्? उत्थास्यामि.
उत्थास्यामि. उत्थास्यामि. उत्थास्यामि. आगामिमासे
वदतु महोदय, वदतु.
आगामिमासे अहं पाकं सम्यक् करिष्यामि.
आगामिवर्षे.
आगामिवर्षे अहं मम मित्रेण गृहं गमिष्यामि.
मित्रेण सह कुत्र गमिष्यति भवान्? मित्रेण सह कुत्र गमिष्यति?
वाशिङ्ग्टन् नगरं गमिष्यामि.
ओ, वाशिङ्ग्टन् नगरं गमिष्यामि. उत्तमम्. अपि च आगामिसप्ताहे.
आगामिसप्ताहे संस्कृतपाठं पठिष्यामि.
उत्तमम्. आगामि अपराह्णे. अपराह्णम् इत्युक्ते आफ्टर्नून्, नेक्स्ट् आफ्टर्नून्. भवान् किं करिष्यति?
कार्यालये कार्यं करिष्यामि.
उत्तमम्. आगामि मङ्गलवासरे भवान् किं करिष्यति?
आगामि मङ्गलवासरे अहं पूजां करिष्यामि.
उत्तमम्. आगामि दुर्गापूजायां भवान् किं करिष्यति?
दुर्गापूजायां श्लोकं पठिष्यामि.
उत्तमम्. आगामि रविवासरे भवान् किं करिष्यति?
आगामि रविवासरे अहं शयनं करिष्यामि.
उत्तमम्. आगामि पूर्णिमायां भवान् किं करिष्यति?
आगामि पूर्णिमायाम् अहं सत्यनारायणपूजां करिष्यामि.
अस्तु. तथा एव आगामि शताब्द्यां, शताब्दिः इति वयं जानीमः, शताब्द्यां, नेक्स्ट् सेञ्चुरि इति वदामः, तादृशरीत्या एव. तथा एव अपि च आगामि जन्मनि. जन्मनि इत्युक्ते नेक्स्ट् बर्त् इति अपि वयं वक्तुं शक्नुमः. इत्युक्ते अत्र गत इति पदं योजयित्वा वदामश्चेत् क्रियापदं भूतकालार्थे सम्भवति. आगामि इति पदं योजयित्वा वदामश्चेत् भविष्यत्कालार्थे वाक्यरचना सम्भवति इति तत्र विषयः अस्ति. इत्युक्ते अत्र गत आगामि अपि च अभ्यासपुस्तके भवन्तः सर्वे चिन्तयित्वा गत आगामि इति पदानि पदद्वयं योजयित्वा कानिचन वाक्यानि गृहपाठरूपेण भवन्तः सर्वे लिखन्तु. अधुना अत्र अन्यः विषयः अस्ति अस्मिन्नेव पुटे 22.1 इति अभ्यासे अत्र अन्यः अभ्यासः अस्ति यावत् तावत् इति. अत्रापि पदयुगलमस्ति यावत् तावत् तत्र किमस्ति इति एकवारं पठेम. अत्र लक्ष्मी भगिनी भवती अत्र पठतु.
यावत् तावत् एतानि वाक्यानि पूर्णानि करोतु. उदाहरणं नद्या यावत् जलम् अस्ति तावत् सरोवरे नास्ति.
तत् वाक्यं सत्यं वा? अत्र यावत् तावत् इति पदमस्ति. यावत् इति पदम् अव्ययम् इति वदामः. अव्ययम् इत्युक्ते तस्य पदस्य लिङ्गवचनविभक्तिपरिवर्तनं न भवति. संस्कृतभाषायां कानिचन पदानि सन्ति अव्ययम् इति वदामः. अव्ययपदस्य लिङ्गवचनविभक्तिपरिवर्तनं न कदापि भवति. परन्तु अत्र यावत् तावत् इति पदयुगलमपि सर्वदा एज़् ए फेर् दे गो एज़् ए फेर् इन् ए सेण्टेन्स्. अत्र प्रथमं वाक्यम् उदाहरणत्वेन दत्तमस्ति नद्यां यावत् जलमस्ति तावत् सरोवरे नास्ति इति वाक्यं सत्यं. किमर्थं? नदी बृहती अस्ति सरोवरः लघुः अस्ति. नद्यां बहु जलमस्ति परन्तु सरोवरे तावत् जलं नास्ति. सरोवरे अपि जलमस्ति परन्तु नद्यां यावदस्ति तावत् नास्ति. इत्युक्ते अत्र एस् मच् एस् इति वदामः आङ्ग्लभाषायाम् एस् मच् एस् तथा. अत्र जलम् इति पदं नपुंसकलिङ्गपदम् इति कृत्वा अत्र यावत् इति दत्तमस्ति. परन्तु अत्र यावत् इति पदं त्रिषु लिङ्गेषु भवति. कथं? स्त्रीलिङ्गे वदामश्चेत् यावती यावती शक्तिः इति वदामः. पुंलिङ्गे वदामश्चेत् यावान् यावान् कालः इति वदामः. इत्युक्ते यावत् इति पदम् अव्ययरूपेण तस्य उपयोगं कुर्मः अपि च तस्य विशेषणम् इव अपि तस्य उपयोगं कुर्मः. विशेषणम् इव कार्यं करोति चेत् तत्र पदं स्त्रीलिङ्गपदमस्ति चेत् यावती इति रूपं स्वीकरोति. पदं विशेष्यं पुंलिङ्गपदमस्ति चेत् यावान् तथा भवति. परन्तु अत्र जलमिति पदं नपुंसकलिङ्गपदमिति कृत्वा यावत् जलमस्ति तावत् सरोवरे नास्ति. सरोवरे इति पदं तस्य विभक्तिः का भगिनि?
सप्तमी.
सप्तमी नद्यां. नद्याम् इति पदस्य विभक्तिः
द्वितीयविभक्ति.
अत्र पश्यतु सरोवरे इति सप्तमी रूपं नद्यां.
सप्तमी सारी सप्तमी
सप्तमी उत्तमं सप्तमी. अत्र प्रथमम् उदाहरणं करोतु. अत्र प्रथमं वाक्यं वदतु. अत्र
कर्णाटकं यावत् विशालं केरलं तावत् विशालं नास्ति.
अत्र वाक्यम् एकवारं पुनः वदति चेत् अत्र तस्य अर्थः कः इति वयं ज्ञातुं शक्नुमः. कर्णाटकराज्यं यावत् विशालमस्ति तावत् केरळं नास्ति, तावत् विशालं नास्ति. इत्युक्ते सत्यम्. अपि च द्वितीयं करोतु.
एषा यावत् कार्यं करोति तावत्
एषा इत्युक्ते अत्र पश्यतु, एषा इत्युक्ते एषा महिला वा एषा बालिका वा तत्र एषा इति पदं सर्वनामपदम्. एषा बालिका यावत् कार्यं करोति अथवा एषा महिला यावत् कार्यं करोति तावत् भवती कर्तुं शक्नोति वा? तावत् अहमपि कर्तुं शक्नोमि.
तावत् अहमपि शक्नुं करोमि.
अहमपि कर्तुं शक्नोमि. एषा इत्युक्ते सर्वनामपदम्. एषा इत्युक्ते एषा बालिका वा एषा महिला वा इति भवति. अत्र किं वक्तव्यम्? एषा यावत् कार्यं करोति तावत् अहमपि
कार्यं कर्तुं शक्नोमि.
नो चेत् किं वदामः? एषा यावत् कार्यं करोति तावत् अहं न करोमि. आम् आम् इति वक्तुमिच्छति, आम् इति वक्तुम् इच्छति चेत् आम् अहमपि कर्तुं शक्नोमि इति समीचीनं. नो चेत् किं वदामः? तावत् कार्यम् अहं न करोमि इत्यपि समीचीनम्. अपि च तृतीयं करोतु.
भीमस्य यावत् धैर्यम् अस्ति तावत् अर्जुनस्य धैर्यं नास्ति.
उत्तमं. भीमस्य यावत् धैर्यमस्ति तावत् अर्जुनस्य नास्ति. अग्रिमे पुटे अपि कानिचन उदाहरणानि सन्ति. कादम्बरी भगिनी भवती करोतु.
कुत्र भगिनी?
अत्र अग्रिमे पुटे यावत् तावत् योजयित्वा इतोपि चत्वारि वाक्यानि सन्ति अग्रिमे पुटे.
सः यावत् वदति
तावत्
तावत् सः माता सन्तोषं भवति.
भगिनि अत्र पश्यतु, अत्र किं दत्तमस्ति? सः इत्युक्ते सः पुरुषः वा सः बालकः वा सः बालः. सः इति भवती जानाति, सः इति सर्वनामपदम्. सः यावत् वदति तावत् भवती वदति वा?
तावत् सः माता
अत्र पश्यतु भगिनि, सः यावत् वदति तावत् अहं न वदामि. नो चेत् सः यावत् वदति तावत् अहमपि वदामि. नो चेत् सः यावत् वदति तावत् तस्य माता अथवा तस्य पिता न वदति. तथा वक्तव्यं. सः यावत् वदति तावत् अन्यः वदति वा न वा इति वक्तव्यम्. अत्र पश्यतु, यावत् कादम्बरी भगिनी पठति तावत् अहं न पठामि. यावत् कादम्बरी भगिनी सङ्गीतविद्यां सङ्गीतसाधनां करोति तावत् अहं न करोमि. तथा वक्तव्यम् इत्युक्ते अत्र सः यावत् वदति तावत् अन्यः वदति वा न वा वक्तव्यं वदतु.
सः यावत् वदति तदा तस्य माता तावत् तस्य माता न वदति.
सुन्दरं तथा वक्तव्यं. सः यावत् खादति तावत् वदतु.
तावत् तस्य माता न खादति.
उत्तमम्. अत्र तथा एव अग्रिमं करोतु.
मम भगिनी यावत् पठति तावत् अहं न पठामि.
उत्तमं. यदि भवती पठति चेत् तदा किं वक्तव्यं? यदि भवत्याः भगिनी अपि अस्ति, केवलम् ऊहां करोतु, भवत्याः भगिनी अपि अस्ति, यावत् मम भगिनी पठति तावत् अहमपि पठामि. नो चेत् तावत् अहं न पठामि किमपि तथा वक्तव्यम्. षष्ठं वाक्यं करोतु.
अहं मधुरं यावत् इच्छामि तावत् मम माता अपि इच्छति.
सुन्दरं सुन्दरम्. अग्रिमं करोतु.
सुधा यावत् क्रीडति तदा तावत् तस्य पिता न क्रीडति.
सुन्दरं सुन्दरं. तथा एव वक्तव्यम्. इतोपि किञ्चित् अभ्यासं कुर्मः. भवती जानाति वा घटः इत्युक्ते पाट्, चषकः इत्युक्ते ग्लास् अथवा कप्. अहं वाक्यस्य प्रथमभागं वदामि, द्वितीयभागं भवती पूरयतु. घटे यावत् जलमस्ति तावत् चषके नास्ति. तथा वक्तव्यं. भीमस्य यावत् धैर्यमस्ति वदतु.
तावत् धैर्यं
अत्र महाभारते अत्र दुर्योधनः अस्ति, नकुलः अस्ति, सहदेवः अस्ति, किमपि नाम स्वीकृत्य वदतु.
अर्जुनं नास्ति.
अर्जुनस्य नास्ति. भीमस्य यावत् धैर्यम् अस्ति तावत् धैर्यम् अर्जुनस्य नास्ति. अपि च यावत् शीघ्रं विमानं चलति तावत्
तावत् नास्ति.
न चलति. उत्तमम्. इत्युक्ते यावत् शीघ्रं विमानं चलति तावत् शीघ्रं द्विचक्रिका न चलति. भवती तत्र भारतदेशे सर्वे क्रिकेट् क्रीडां क्रीडन्ति. तत्र लक्ष्मीभगिनी भवती वदतु, अत्र यावत् सचिन् तेण्डूल्कर् क्रीडति तावत्
अहं न क्रीडामि.
उत्तमम्. अपि च यावत् अहं पठामि तावत् मम पुत्री
न पठिष्यति.
पूर्णं वाक्यं वदतु.
यावत् अहं
पठामि
तावत् मम पुत्री न पठति
तथा एव गृहे यावत् चायचूर्णम् अस्ति तावत् शर्करा नास्ति किमपि तथा एव गृहे यावत् इतोपि किं वदामः कूपी अस्ति चेत् कूपी जानाति वा कूपी इत्युक्ते बाटल् कूप्यां यावत् चायचूर्णम् अस्ति तावत् चमसे नास्ति अपि च अहं यावत् संस्कृतं पठामि तावत्
तावत् विज्ञानं न पठामि
तावत् अहम् आङ्ग्लभाषां न पठामि अथवा किमपि अपि च यावत् मम संस्कृतज्ञानम् अस्ति तावत् ज्ञानं पूर्वं नास्ति इति अपि यावत् बृहत् महाभारतम् अस्ति तावत् बृहत् रामायणं नास्ति अपि च यावत् माता वदति वदतु भगिनि तत्र किं वदामः
तावत् अहं करोमि
यावत् माता वदति तावत् पुत्री अथवा किमपि पुत्री न वदति धन्यवादः भगिनी अनन्तरम् अत्र उमाशङ्करमहोदय भवान् किञ्चित् तत्र इतोपि अभ्यासं कुर्मः किञ्चित् वदतु अत्र अत्र यावत् भीमः खादति तावत्
धर्मः न खादति
इत्युक्ते धर्मराजः न खादति यावत् अनुजः पठति तावत्
मम अगं न पठति पठामि
अहं न पठामि यावत् कार्यं माता करोति तावत्
मम भगिनी न कार्यं करोमि
मम भगिनी
न करोति
उत्तमं यावत् जलं समुद्रे अस्ति तावत्
नद्यां नास्ति
उत्तमं तथा एव यावत् जलं नद्याम् अस्ति तावत् जलं
तडागे नास्ति
उत्तमं तथा एव वक्तव्यम् उत्तमं धन्यवादः महोदय अग्रिमपुटे अत्र इतोपि अन्यः अभ्यासः अस्ति यावत् तावत् योजयित्वा भवन्तः सर्वे वाक्यद्वयं वा वाक्यत्रयं वा गृहपाठरूपेण रचयन्तु अधुना अत्र 23.1 भागे यथा तथा इति अभ्यासः अस्ति तदपि युगलं कृत्वा वाक्ये सर्वदा आगच्छति यावत् तावत् इत्यस्मिन् विषये अहं किञ्चित् वदामि भवन्तः सर्वे श्रुतवन्तः एव भजगोविन्दम् इति केचन श्लोकाः सन्ति नाम्ना भजगोविन्दं नाम्ना केचन श्लोकाः सन्ति तत्र बहून् श्लोकान् तत्र वदामः तत्र एकः श्लोकः अस्ति यावद्वित्तोपार्जनसक्तः तावन्निजत्रिवारो रक्तः पश्चाज्जीवति जर्जरदेहे वार्तां कोऽपि न पृच्छति गेहे, तथा एव अन्यः श्लोकः अपि अस्ति, यावत् पवनो निवसति गेहे देहे तावत् पृच्छति कुशलं गेहे, गतवति वायो देहापाये भार्या बिभ्यति अस्मिन् काये, तथा तत्र यावत् तस्मिन् श्लोके यावत् तावत् इति पदद्वयं योजितमस्ति, योजयित्वा तत्र श्लोकाः सन्ति, भजगोविन्दश्लोकाः. अत्र अधुना यथा तथा इति अभ्यासं कुर्मः अधुना. करोतु, पठतु महोदय अत्र 23.1.
उदाहरणं दृष्ट्वा अनन्तरवाक्येषु स्थितानि तालानि उच्चितौ शब्दौ पूरयतु.
अत्र पश्यतु महोदय, उचितैः शब्दैः,
उचितैः शब्दैः.
अत्र पश्यतु, उदाहरणं दृष्ट्वा इति दत्तमस्ति. उदाहरणम् अत्र विभक्तिः का?
उदाहरणं द्वितीया विभक्ति.
किमर्थं चेत् तत्र दृष्ट्वा इति पदं क्त्वान्तपदं, यदा क्त्वान्तपदं कर्मपदं स्वीकरोति, अतः अनन्तरवाक्येषु इति दत्तमस्ति. अनन्तरवाक्येषु विभक्तिः का?
वाक्येषु
अत्र कोऽपि वदति वा? कादम्बरी भगिनी वक्तुं शक्नोति वा?
सप्तमी विभक्ति,
सप्तमी बहुवचनम् इत्युक्ते अत्र उदाहरणत्वेन वाक्यद्वयं दत्तमस्ति. उदाहरणं पश्यतु, प्रथमतया उदाहरणं दृष्ट्वा अनन्तरवाक्येषु तत्र कानिचन रिक्तानि स्थलानि सन्ति, तानि उचितैः शब्दैः पूरयतु. उचितैः शब्दैः तत्र विभक्तिः का? वचनं किं, लिङ्गं किं महोदय? तृतीय बहुवचनं. अत्र पश्यन्तु, उचितैः शब्दैः तत्र तृतीया बहुवचनरूपं दत्तमस्ति. प्रथमाविभक्तिरूपं किं भवति? उचितः शब्दः.
उचितः शब्दः, ओके.
इत्युक्ते अत्र शब्दः इति पदं पुंलिङ्गपदम्, अपि च उचितः उचित इति पदं तस्य विशेषणम्, अपि च पूरयतु. लकारः कः महोदय? लोट्लकारः. अधुना उदाहरणं पठतु महोदय.
यथा सचिन् तेण्डुल्कर् क्रीडति तथा अहं न क्रीडामि. सो इट्स् लैक् सेम् यावत् तावत् न?
अत्र यावत् तावत् इत्युक्ते एस् मच् एस् इति अर्थः, परन्तु यथा तथा इति दत्तमस्ति. वयं पूर्वमेव पठितवन्तः यदा तदा इति पठितवन्तः. यदा तदा इत्युक्ते वेनेवर् इति अर्थः, वेन् वेनेवर् देन् इति यदा तदा, परन्तु अत्र यथा तथा. तत्र उच्चारणं सम्यक् भवेत् इत्युक्ते अत्र यथा इति दत्तमस्ति, तवर्गीयव्यञ्जनं. तथा इति वक्तव्यं, यथा इत्युक्ते यादृशरीत्या, जस्ट् लैक् दट्. यथा इत्युक्ते यादृशरीत्या सचिन् तेण्डुल्कर् क्रीडति तादृशरीत्या अहं न क्रीडामि. यथा तथा इति अत्र हकारः सवर्गीय द्वितीयव्यञ्जनं वयं पूर्वं पठितवन्तः यदा तदा परन्तु अत्र यथा तथा यदा तदा इत्युक्ते वेनेवर् डन् करोतु महोदय द्वितीयं करोतु
यथा भीमसेनजोषी गायति तथा अन्यः न गायति
तत्तु सत्यं भीमसेनजोषी उत्तमरीत्या गायति परन्तु अन्यः तथा न गायति सः उत्तमः गायकः परन्तु अन्यः तादृशरीत्या न गायति तथा एव सचिन् तेण्डूल्कर् उत्तमक्रीडाकारः परन्तु अन्यः तथा न क्रीडति अन्यः अपि क्रीडति परन्तु तादृशरीत्या न क्रीडति तावत् तथा उत्तमरीत्या न क्रीडति अत्र तथा अत्र अन्य अनन्तरवाक्येषु रिक्तस्थानानि पूरयतु अत्र प्रथमं प्रयत्नं करोतु महोदय
यावत् कालिदासः काव्यं लिखितवान् तावत् न काव्यम्
अत्र पश्यतु महोदय अत्र यथा अस्माकं विषयः अस्ति यथा तथा अत्र यथा कालिदासः काव्यं लिखितवान्
तथा न काव्यं लिखित न काव्यं लिखितवान् लिखामि
भवान् लिखति वा अत्र यथा कालिदासः काव्यं लिखितवान् तथा
न लिखामि न कार्यं लिख न काव्यं लिखामि
तथा अहं काव्यं न लिखामि अस्तु इत्युक्ते तथा कोऽपि अन्यः न लेखितुं शक्नोति इत्युक्ते अहमपि न लिखामि
ओके
अत्र कालिदासः इव कविः नास्ति तदर्थं यथा कालिदासः काव्यं लिखितवान् तादृशरीत्या तथा अहं न लेखितुं शक्नोमि अहं न लिखामि उत्तमं द्वितीयं करोतु
यथा रविवर्मा चित्रं चित्रं लिखितवान् अहं तथा अन्यः न लिखितवान्
अन्यः न लिखितवान् अथवा तथा अन्यः न लिखति नो चेत् अत्र लिखति इत्यपि समीचीनं न लिखितवान् अपि समीचीनं लिखितवान् इति वदामश्चेत् भूतकालार्थे भवति लिखति इति वदामश्चेत् वर्तमानकालार्थे भवति न कोऽपि लेखितुं शक्नोति तादृशरीत्या इति अर्थः रविवर्मा एकः उत्तमः चित्रकारः रविवर्मा सः राजा रविवर्मा सः उत्तमरीत्या चित्रं लिखति परन्तु अत्र यथा सः लिखति तथा कोऽपि न लिखति नोबडी एल्स् केन् डू लैक् दट् इति अर्थः तृतीयं करोतु महोदय
यथा मम मित्रं गायति तथा सग न गायति
यथा मम मित्रं गायति तथा
न
भवान् किम् उक्तवान्? पुनः एकवारं वदतु, भवान् किम् उक्तवान्?
तदा सः सः पुत्रः न गायति.
तथा तस्य पुत्रः न गायति. नो चेत् तस्य पुत्री न गायति. नो चेत् यथा मम मित्रं गायति तथा अहमपि गायामि. नो चेत् यथा मम मित्रं गायति तथा मम पत्नी अपि गायति. नो चेत् यथा मम मित्रं गायति तथा तस्याः पुत्री अपि गायति. किमपि तादृशरीत्या अत्र वाक्यानि पूरणीयम्. अत्र लक्ष्मीभगिनी भवती करोतु. धन्यवादः महोदय. लक्ष्मीभगिनी करोतु अत्र.
यथा भवान् पाठयति तथा कोऽपि न पाठयति.
उत्तमं. कोऽपि न पाठयति. यथा यथा भवती पाठयति. वदतु अत्र अन्यत् वाक्यम्.
तथा अन्यः न पाठयति.
न पाठयति. यथा भवती संस्कृतं पठति तथा
मम
पुत्री
अपि पठति.
तथा मम पुत्र्या अपि पठति. उत्तमं. यथा भवती पाठं करोति तथा
अहं पाठं न करोमि.
पाकं भगिनि. पाकं यथा पाकं. यथा भवती पाकं करोति तथा
अहमपि पाकं करोमि.
अहमपि करोमि. यथा अहं पाकं करोमि तथा मम माता अपि करोति. नो चेत् अग्रिमं करोतु.
यथा सः उपन्यासं करोति तथा कोऽपि न करोति.
कोऽपि न करोति. उत्तमम्. अत्र यथा सः उपन्यासं करोति, अस्मिन् वाक्ये कर्मपदं किम्?
सः
कर्मपदं
करोति.
करोति इति क्रियापदम्. कर्मपदम् इत्युक्ते आब्जेक्ट् आफ् द सेण्टेन्स्. इत्युक्ते अत्र उपन्यासम् इति पदं कर्मपदं, करोति इति पदं क्रियापदं, सः इति कर्तृपदं. कर्तृपदम् इत्युक्ते अत्र पूर्वस्मिन् वाक्ये पश्यतु भगिनि, कालिदासः काव्यं यथा कालिदासः काव्यं लिखितवान्, अस्मिन् वाक्ये कर्मपदं किम्?
काव्यं.
सुन्दरं. रविवर्मा चित्रं लिखितवान्, अत्र कर्मपदं?
चित्रम्.
उत्तमम्. अपि च मम मित्रं गायति, अस्मिन् वाक्ये कर्मपदम् अस्ति वा न वा?
मित्रं
न. तत्र कर्मपदं नास्ति. मम मित्रम् इति पदं तत्र कर्तृपदम्. किमर्थं चेत् तत्र गै धातुः अकर्मकधातुः, अतः तत्र कर्मपदं नास्ति. भवान् पाठयति, तत्र कर्मपदं न उक्तमस्ति, परन्तु यदि वयम् इच्छामश्चेत् कर्मपदं योजितुं शक्नुमः. भवान् यथा भवान् संस्कृतपाठं पाठयति, अस्मिन् वाक्ये कर्मपदं न दत्तमस्ति, परन्तु यदि वयम् इच्छामश्चेत् तत्र कर्मपदम् अपि योजयित्वा वाक्यरचनां कर्तुं शक्नुमः. तत्र यदि यथा भवान् संस्कृतपाठं पाठयति तथा अहं न पाठयामि. अन्तिमं करोतु.
यदा मम अध्यापकः संस्कृतं जानाति अहं न जाना तदा अहं न जानाति न जानामि
तथा अहं न जानामि नो चेत् यथा मम अध्यापकः संस्कृतं जानाति तथा अहमपि जानामि तथा तथापि नो चेत् न जानाति चेत् अहं न जानामि जानाति चेत् आम् अहमपि सम्यक् जानामि संस्कृतं यथा मम अध्यापकः जानाति तथा अहमपि जानामि इति वक्तुं शक्नुमः अत्र प्रथमे वाक्ये लिखितवान् इति स्तवतु रूपं भूतकालार्थे अस्ति लिख् धातुः अस्ति लिख् धातुः सकर्मकः अपि च द्वितीये वाक्ये चित्रं लिखितवान् तत्रापि लिख् धातुः सकर्मकधातुः अपि च गै धातुः अकर्मकः पाठी इति पदम् अत्र पाठयति तत्र धातुः अस्ति पाठी किं वदामः इत्युक्ते निजन्तधातुः इति वदामः इत्युक्ते अहं न भवान् न पठति भवान् पाठयति पाठयति इति अन्यं पाठयति अत्र पश्यतु पाठयति इति दत्तमस्ति इत्युक्ते तत्र निजन्तधातुः इति वदामः इत्युक्ते मोटिवेटिङ्ग् अदर्स् टु डू द वर्क् पाठयति तथा अनन्तरम् अत्र इतोपि किमस्ति क्रूधातुः क्रूधातुतः करोति क्रूधातुः सकर्मकधातुः अपि च जानाति तत्र ज्ञाधातुः अस्ति ज्ञाधातुः अपि सकर्मकधातुः उत्तमम् अत्र यथा तथा योजयित्वा वाक्यद्वयं गृहपाठरूपेण भवन्तः सर्वे लिखन्तु वाक्यद्वयं रचयन्तु अपि च अत्र एका कथा अस्ति तृतीया विभक्तिः नाम्ना एका कथा अस्ति सर्वे तत् करपत्रं पश्यन्तु एकवारं किञ्चित् तत्र सर्वेषां पार्श्वे अस्ति वा करपत्रम् अत्र पठतु भगिनि अत्र किं दत्तमस्ति
तृतीया विभक्तः विभक्तिः होलिकोत्सवः भारतवर्षे द्वादशसु मासेषु त्रयोदश उत्सवाः भवन्ति इति काचन प्रसिद्धिः वर्तते होलिकोत्सवः तेषु अन्यतमः भारतीयसंस्कृतौ होलिकोत्सवस्य विशिष्टं महत्त्वं वर्तते हिरण्यकशिपोः भगिन्याः होलिकायाः दहनेन अयम् उत्सवः सम्बन्धः अस्ति सा देवस्य वरप्रभावेण अग्निना
दग्धा
न भवति स्म अत एव हरिण्यकशिपोः निर्देशेन सा प्रह्लादम्
अङ्के
उपदेशस्य अग्नौ उपविष्टवती परन्तु प्रह्लादस्य भक्त्या प्रसन्नः नारायणः प्रह्लादं रक्षितवान् प्रज्वलितेन वह्निना सा स्वयमेव दग्धा अभवत् सस्याः घटनायाः स्मृतिरूपेण प्रतिवर्षं फाल्गुणपूर्णिमावसरे होलिकामहोत्सवः आचर्यते। होलिकामहोत्सवस्य नाम श्रवणेन भारतीयानां चेतांसि प्रफुल्लितानि भवन्ति। होलिकावसरे जनाः परस्परं
प्रेम्णा
मिलन्ति। एतेन तेषां प्रतिः वर्धते।
अत्र अत्र प्रथमपरिच्छेदं भवती पठितवती, फस्ट् पेराग्राफ्। अत्र भवती श्रुतवती वा, होलिकोत्सवः नाम्ना एकः उत्सवः अस्ति, होली इति वयं जानीमः। अत्र होलिकोत्सवसन्दर्भे किं किं भवति, अत्र किं कुर्मः, अत्र होलिकोत्सवः नाम्ना उत्सवस्य तत्र विषये अत्र एका कथा अस्ति। प्रथमवाक्यं पश्यतु भगिनि, भारतवर्षे इत्युक्ते भारतदेशे द्वादशसु मासेषु त्रयोदश उत्सवाः भवन्ति इति काचन प्रसिद्धिः वर्तते। कति मासाः सन्ति वर्षे?
द्वादशमासे
द्वादशमासाः सन्ति, परन्तु कति भारतदेशे कति उत्सवाः सन्ति? त्रयोदश उत्सवाः सन्ति। इत्युक्ते अत्र तत्र जोक् अत्र इव अस्ति। अत्र यद्यपि संवत्सरे केवलं द्वादशमासाः एव सन्ति, किन्तु भारतदेशे त्रयोदश उत्सवाः भवन्ति। इत्युक्ते भारतदेशे सर्वे जनाः सर्वदा उत्सवाः आचरन्ति, उत्सवान् आचरन्ति इति अर्थः। इति काचन प्रसिद्धिः वर्तते, सर्वदा ते उत्सवान् आचरन्ति भारतदेशे सर्वे जनाः। तदा होलिकोत्सवः तेषु अन्यतमः। होलिकोत्सवः नाम्ना एकः उत्सवः अस्ति। अपि च भारतीयसंस्कृतौ होलिकोत्सवस्य विशिष्टमहत्त्वं वर्तते, तस्य प्राधान्यता अस्ति। होलिकोत्सवस्य बहु प्राधान्यता अस्ति भारतीयसंस्कृतौ। भगिनी वदतु, संस्कृतौ इत्यस्य विभक्तिः का? सप्तमी संस्कृतिः इति पदस्य सप्तम्यन्तरूपं संस्कृतौ। संस्कृतौ होलिकोत्सवस्य महान् प्रधान तत्र विशिष्टता अस्ति। अपि च तत्र एका कथा अस्ति, हिरण्यकशिपुः, भवती जानाति वा सः कः? पिता, प्रह्लादस्य पिता हिरण्यकशिपुः नाम्ना एकः राक्षसः आसीत्। अनन्तरं हिरण्यकशिपोः भगिनी अस्ति, तस्याः नाम किं?
होलिका।
हिरण्यकशिपोः भगिन्याः नाम होलिका। होलिकायाः दहनेन अयम् उत्सवः सम्बद्धः अस्ति। इत्युक्ते तत्र हिरण्यकशिपोः भगिन्याः नाम होलिका, तस्याः दहनम् अभवत्, तस्मिन् सन्दर्भे अयम् उत्सवः आरब्धः। दिस् फेस्टिवल् इस् रिलेटेड् टु दट्। सा देवस्य वरप्रभावेण अग्निना दग्धा न भवति स्म. होलिका तस्य देवस्य वरप्रभावेण सा न कदापि अग्निना दग्धा न भवति इति तस्याः एकं वरमस्ति. तदर्थं सा न कदापि अग्निना दग्धा न भवति स्म. अतः हिरण्यकशिपोः निर्देशेन इत्युक्ते अत्र आज्ञा, सः हिरण्यकशिपुः एकवारम् आज्ञां कृतवान्. तत्र आज्ञा का इत्युक्ते सा होलिका प्रह्लादम् अङ्के उपावेश्य, अङ्के इत्युक्ते लैप् इति वदामः. सा होलिका प्रह्लादम् अङ्के उपावेश्य अग्नौ उपविष्टवती. अग्नौ सा उपविष्टवती. तदा किम् अभवत्? किन्तु तदा प्रह्लादस्य भक्त्या नारायणः प्रसन्नः अभवत्. प्रसन्नः भूत्वा प्रह्लादं रक्षितवान् नारायणः. परन्तु सा होलिका प्रज्वलितेन वह्निना दग्धा अभवत्. वह्निः इत्युक्ते अग्निः, इत्युक्ते अन्ततो गत्वा अत्र नारायणः प्रह्लादं रक्षितवान् परन्तु सा होलिका दग्धा अभवत्, अग्निना दग्धा अभवत्. अत्र पश्यतु बहूनि पदानि स्थूलाक्षरैः लिखितानि पदानि सन्ति, बोल्ड् लेटर्स्, देयर् आर् वर्ड्स्. पठतु, पदानि पठतु एकवारम्.
अग्निना दग्धेन निर्देशेन भक्त्या प्रज्वलितेन वह्निना नामश्रवणेन
प्रेम्णा
एतेन.
उत्तमम्. अत्र स्थूलाक्षरैः लिखितानि सर्वाणि पदानि तृतीयाविभक्त्यन्तरूपाणि, परन्तु तेषां प्रथमाविभक्तिरूपाणि कानि इति एकवारं पश्येम. दहनम् इति पदस्य तृतीयाविभक्त्यन्तरूपं दहनेन, तथा एव अग्निः इति पदस्य तृतीयान्तं रूपम् अग्निना. निर्देशः पदस्य तृतीयान्तं रूपं निर्देशेन. तथा एव भक्तिः इति पदस्य रूपं भक्त्या. अपि च प्रज्वलितः इति पदस्य तृतीयान्तं रूपं प्रज्वलितेन. वह्निः पदस्य रूपं वह्निना. तथा एव नामश्रवणम् इति पदस्य तृतीयान्तं रूपं नामश्रवणेन. तथा एव प्रेमा इति पदस्य तृतीयान्तं रूपं प्रेम्णा. किमर्थं तत्र नकारः अस्ति? तत्र रेफः अस्ति इति कारणतः प्रेम्णा इति भवति. अपि च एषः इति पदस्य तृतीयान्तं रूपम् एतेन इति भवति. अत्र कथा का इत्युक्ते अत्र होलिका दग्धा अभवत्. तस्याः घटनायाः स्मृतिरूपेण प्रतिवर्षं फाल्गुणपूर्णिमावसरे होलिकामहोत्सवः आचर्यते. सा घटना पूर्वम् अभवत्, तदनन्तरम् अधुना वयं किं कुर्मः? तस्याः घटनायाः स्मृतिरूपेण, एज अ रिमेम्बरेन्स्, प्रतिवर्षं वयं होलिकामहोत्सवम् आचरामः. होलिकामहोत्सवस्य नामश्रवणेन भारतीयानां चेतांसि प्रफुल्लितानि भवन्ति. चेतांसि इत्युक्ते मनः. यदा कदापि होलिकामहोत्सवस्य नामश्रवणेन, केवलं जस्ट् बै लिसनिङ्ग् टु द नेम्, people feel very happy. Holika Mahotsavasya Kevala Namashravanena Bharatiyanam Chetamsi Prafullitani Bhavanti. Ichukte Sarve Santushtaha Bhavanti. Iti Artaha. Holika Avasare Janaha Parasparam Premna Milanti. Etena Yesham Pritihi Vartate. अनन्तरम् अत्र कादम्बरी भगिनी भवती पठतु अग्रिमपरिच्छेदम्.
अस्तु भगिनि. पित्रा सह होली मेलनाय नीलमणेः महती इच्छा आसीत्. प्रकृत्या चतुरः आकृत्या च सुन्दरः सुन्दरः स स्वगृहनगरे मात्रा सह निवसति स्म. माता विमला च पुत्रेण नीलमणिना सुखेन कालम् यापयन्ति आसीत्. तस्य पिता तु अमे रेखदेशे व्यवसायं करोति स्म. परन्तु होल्या एव आकृष्टः सः गतवर्षम् एकवारं भारतस्थं स्वगृहम् आगच्छति स्म.
अधुना अत्र किञ्चित् वदामि. अत्र नीलमणिः नाम्ना एकः बालकः अस्ति. अत्र चित्रं पश्यतु भगिनी. चित्रे एकः लघुबालकः अस्ति. अत्र तस्य नाम नीलमणिः. बालकस्य नाम नीलमणिः. तत्र प्रथमं वाक्यं पश्यतु. पित्रा सह होलीमेलनाय नीलमणेः महती इच्छा आसीत्. इत्युक्ते तस्य बालकस्य नाम नीलमणिः. सः पित्रा सह होली उत्सवस्य उत्सवं तस्मिन् विषये तत्र महती इच्छा आसीत्. नीलमणेः महती इच्छा आसीत्. सः बालकः प्रकृत्या चतुरः. इत्युक्ते सः बुद्धिमान् सः बालकः. अपि च आकृत्या च सुन्दरः. नीलमणिः चतुरः अपि च सुन्दरः. अपि च सः स्वगृहे मात्रा सह निवसति स्म. तस्य गृहे केवलं सः मात्रा सह निवसति. तस्य पिता कुत्र अस्ति? तस्य पिता अमेरिकादेशे निवसति. नीलमणेः मातुः नाम विमला. पश्यतु, माता विमला च पुत्रेण नीलमणिना सह सुखेन कालं यापयन्ती आसीत्. नीलमणेः मातुः नाम विमला. नीलमणिः मात्रा सह स्वगृहे निवसति. तौ द्वौ अपि सुखेन कालं यापयतः. परन्तु तस्य पिता कुत्र अस्ति? तस्य पिता अमेरिकादेशे व्यवसायं करोति. व्यवसायम् इत्युक्ते उद्योगं करोति. व्यवसायम् इत्युक्ते तत्र एग्रिकल्चर् इति अर्थः न. तत्र नीलमणेः पिता अमेरिकादेशे कार्यं करोति स्म. परन्तु होल्या एव आकृष्टः सः प्रतिवर्षम् एकवारं भारतस्थं स्वगृहम् आगच्छति स्म. इत्युक्ते नीलमणेः पिता यद्यपि सः अमेरिकादेशे वसति, सः प्रतिवर्षं होलीमहोत्सवस्य समये एकवारं भारतदेशम् आगत्य तस्य तत्र पुत्रेण सह होलीमहोत्सवं पश्यति तस्य पिता. तदेव अत्र लिखितमस्ति. अनन्तरं किं भवति अस्यां कथायाम् इति वयम् अग्रिमे सप्ताहे पुनः एकवारं मिलित्वा, तत्र कथा बहु दीर्घा अस्ति, अधुना कालातीतः अभवत्, अतः वयम् अत्र स्थगयामः. पुनः अग्रिमे सप्ताहे एकवारं मिलित्वा अत्र कथायां किम् अभवत् इत्यस्मिन् विषये इतोपि चिन्तनं कुर्मः. अधुना अत्र स्थगयामः. सर्वेषां धन्यवादः.
धन्यवादः भगिनि. नमस्कारः.
धन्यवादः. नमस्कारः.
नमस्कारः.